जद्दारु ब्रह्ममूर्ति प्रणवतनुधरं सर्ववेदान्तसारं भक्तानां कल्पवृक्षं भवजलतरणी सर्वतत्त्वानुतत्त्वं योगीनां योगीनां हंसतत्त्वं हरिहरनिमितं श्रीपतिर्वैष्णवानां शैवानां भैरवाख्यं पशुपतिरितिः जासाक्ततत्त्वो च शक्तिः बौधानां बुद्धरूपं वृषभजतिवरं जैनसिद्धान्तसारं शादेवं पातु नित्यं कलिकुलगुहरं श्रीनीलशैलाधिनाथं पञ्चदशाध्यायः श्रीपुरुषोत्तमो योग श्रीभगवान् उवाच ओरध्वो मूलमध्यशाख मस्वस्तं प्राहुरव्ययं छन्दांसि यस्य पर्णानि जस्तं वेदः स वेदवित् अथाश्वरधो प्रसूतां तस्य शाखां गुणा प्रवृधां विषयो प्रवाळः अथाश्च मूलाः ननु शन्ततानि कर्मानुबन्धीनि मनुष्यलोके रूपमस्येह्य ततोपलभ्यते नन्तो न चार्दी न च सम्प्रतिष्ठा स्वास्थमेनं सविरूढमूलं मसङ्गशस्त्रेण दृढेन छित्त्वा ततहं पदं तत् परिमार्गितव्यं जस्मिन् गतानो नृवतन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणि निर्माणमोहां जितसङ्गदोषाम् अध्यात्मनित्यां विनिवृतकामः नैर्विमुक्तां सुखदुःखसंज्ञैः गर्च्छन्त्यमूढां पदमव्ययत् न तदभाषयते सूर्यो न शशाङ्को न पावकः यद्गत्वानं निवर्तन्ते तद्धामं परमं मम ममैवांसो जीवलोके जीवभूतः सनातनः मनः षष्ठानिन्द्रियाणि प्रकृतिस्तानि कर्षति शरीरं यदवाप्नोति यच्चापि उतः क्रामितेश्वरः गृहीत्वे तानि सञ्जाति वायुर्गन्धान्निवासया शुक्रं चक्षोस्परशनं च रशनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामन्तः स्थितं वापि भुञ्जाना वा गुणान्युतं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः यतन्तो योगिनश्चैनः पश्यन्त्यात्मन्यवस्थितं जतन्तो प्रकृतात्मान नैन पश्यन्त्यचेतसः यदादित्यं गतो तेजो जगद्भासो यतेखिलं जचन्द्रोमसि जच्चाग्नौ तत्तेजं विद्धिमामकम्। कामा विश्यश्च भूतानि धारयामह्यमोजसाम् पुष्पामि चौषधी शरवा सोमो भूत्वा रसात्मकः। अहं वैश्वानरं भूत्वा प्राणिनां देहमाश्रितः प्राणोपानो समाजुक्तः पञ्चामन्नः चतुर्विधम्। श्रवास्य चाहं उदिशन्न विष्णो मतः श्रुतिज्ञानः पोहनं च वीरैश्च सर्वैः रहमेव वेद्यो वेदान्त कृतवे विदे वेद चाहं। वावीमं पुरुषौ लोके क्षरश्चां क्षरहेव चो क्षरः सर्वाणि भूतानि कुटस्थोक्षर उच्यते। उत्तमः पुरुषोऽस्तन्यः परमात्मन् तु दारुतः जो लोकं त्रयमाविश्य विभरतो व्ययैश्वरः। यस्मात्क्षरो मतीतोऽहं अक्षरादपि चोत्तमः अतोऽस्मि लोकवेदे च प्रथितः पुरुषोत्तमः। जो मामेवं वशं मूढो जानाति पुरुषोत्तमं सा सर्वविद् भयंतीमा सर्वभावेन भारत। इति गूहोत्तमं शास्त्रं मीदं मुक्तं मया नघ एतद् बुद्ध्वा बुद्धिमान स्यात् कृत्य कृत्यश्च भारत। ॐ जद्दारु ब्रह्ममुरुति प्रणवतनुधरं सर्ववेदान्तसारं भक्तानां कल्पवृक्ष्यं भवजलतरणिः सर्वतत्त्वानुतत्त्वम्। योगीनां योगीनां हंसतत्त्वं हरिहरनिमितं श्रीपतिर्वैष्णवानां शैवानां भैरवाख्यं पशुपतिरितिः जासाक्ततत्त्वो च शक्तिः। बौधानां बुद्धरूपं वृषभजतिवरं जैनसिद्धान्तसारं सादेवं पातु नित्यं कलिकुलगुहरं श्रीनीलशैलाधिनाथं। कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपो कुमाराय गोविन्दायो नमो नमः। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। हरि ओम् शान्तिः ओम् शान्तिः ओम् शान्तिः।